इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको युवराज भट्टराई। आदौ मुख्य वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां राष्ट्रपति भवने समनुष्ठिते समारोहे ऐषमो राष्ट्रिय विज्ञान पुरस्कारान् व्यतरत्। निर्वाचनायोगेन विशेष गहन पुनरीक्षण अभियानस्यानन्तरं मध्यप्रदेशस्य कृते मतदातृसूच्याः प्रारूपं प्रकाशितम्। केरलस्य छत्तीसगढस्य अण्डमान निकोबार द्वीप समूहस्य च प्रारूप मतदातृसूची अनन्तरं प्रख्यापयिष्यते। भारतं चक्रवातेन प्रभाविताय श्रीलंकादेशाय पुनर्निर्माणार्थं सार्धचतुश्शतं मिलियन डॉलर मूल्यात्मकं सहायता पुटकं प्रदास्यति। अन्ताराष्ट्रिय नागरिक विमानन संघटन परिषदि भारतं सर्वाधिकैः मतैः पुनश्चितम्। नवदिल्लीस्थस्य बांग्लादेश उच्चायोगस्य बहिः भूरि संघटनैः अल्पसंख्यकेषु अत्याचार विषये तथा सम्मर्द द्वारा दीपू चन्द्र दासस्य हत्यायाः विरोधे प्रदर्शनम् आचरितम्। अपि च महिला क्रिकेट क्रीडायां भारतम् अद्य सायं विशाखापट्टनम् क्रीडांगणे द्वितीये विंशतिम् प्रतिविंशति स्पर्धा द्वन्द्वे श्रीलंका देशं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। राष्ट्रपतिः द्रौपदी मुर्मू अद्य नवदिल्ल्यां राष्ट्रपति भवने समनुष्ठिते समारोहे ऐषमो राष्ट्रिय विज्ञान पुरस्कारान् व्यतरत्। एषः पुरस्कारः विज्ञाने प्रौद्योगिक्यां नवाचार क्षेत्रे च असाधारण योगदानार्थं देशस्य सर्वोच्च सम्मानः मन्यते। एतस्मिन् वर्षे एते पुरस्काराः श्रेणी चतुष्टये प्रदत्ताः सन्ति, तद्यथा विज्ञानरत्नम्, विज्ञानश्री, विज्ञान युव शान्ति स्वरूप भटनागरः, विज्ञान दल पुरस्कारश्चेति। प्रख्यात खगोल वैज्ञानिकः पद्म विभूषणेन सम्मानितः प्रोफेसर जयन्त विष्णु नार्लीकरः मरणात् परं विज्ञान रत्न पुरस्कारेण सम्मानितः। एतदतिरिच्य अष्ट वैज्ञानिकः विज्ञानश्री इति सम्मानेन सम्मानिताः सन्ति। चतुर्दश युव वैज्ञानिकाश्च विज्ञान युवा पुरस्कार भाजनीभूताः। अथ च CSIR इति दलस्य अरोमा अभियानं विज्ञान दल पुरस्कारेण पुरस्कृतम्। राष्ट्रपतिः प्रावोचत् यत् एतादृशाः पुरस्काराः देशे वैज्ञानिक चिन्तनस्य, नवाचारस्य च प्रेरणा प्रदाने आवश्यकाः सन्ति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या इंटेलिजेंस ब्यूरो इति चार संस्थायाः भूमिकां प्राशंसत्। नवदिल्ल्याम् आयोजिते अष्टात्रिंशे इंटेलिजेंस ब्यूरो इति चार विभागस्य शताब्दी अक्षयनिधि व्याख्यान सत्रे उपस्थितान् जनान् सम्बोधयन्ति राष्ट्रपतिः द्रौपदी मुर्मू वर्या प्रत्यपादयत् यत् इंटेलिजेंस ब्यूरो इति चाराभिकरणेन राष्ट्रिय सुरक्षायाः निश्चप्रचं प्रबन्धने, भारतस्य एकतायाः अखण्डतायाश्च रक्षणे अत्यन्तमेव महत्वपूर्णा भूमिका निर्व्यूढास्ति। अमुना प्रोदितं यत् विगते दशके IB इति चाराभिकरण सदृशैः अभिकरणैः अनेकानि आन्तरिक संकटानि निष्क्रियीकृतानि सन्ति। राष्ट्रपतिना चाराभिकरण विभागः देशस्य अदृश्य नायकत्वेन प्रतिपाद्य तस्य समर्पणस्य, सेवाभावस्य च प्रशंसापि विहिता। एतद्वक्तव्यं राष्ट्रिय सुरक्षायां गुप्तचर संस्थानां मौनं सशक्तं च योगदानं स्पष्टतया रेखांकयति। शृण्वन्तु तावत् किं ब्रूते राष्ट्रपतिः।
Internal security has enabled our people and the nation to march ahead with greater energy and speed on several paths of growth and development. As a result, India has emerged as one of the fastest growing major economies and is poised to become the third largest economy in the near future.
निर्वाचनायोगेन विशेष गहन पुनरीक्षण अभियानस्य अन्तर्गतं मध्यप्रदेशस्य कृते प्रारूप मतदातृसूची प्रख्यापिता। आपत्तयः जनवरी द्वाविंशीं यावत् अभियाचिताः सन्ति। ध्येयमस्ति यत् निर्वाचनायोगेन सार्धैक मास पर्यन्तं गृहे गृहे विशेष गहन पुनरीक्षण अभियानस्यानन्तरं अद्य मध्यप्रदेशस्य प्रारूप मतदातृसूची प्रख्यापिता अस्ति। एषा सूची राज्यस्य सर्वेभ्य 30-200 विधानसभा आसनेभ्य प्रकाशिता अस्ति, सर्वेषु मतदान केन्द्रेषु च उपलब्धास्ति। अस्यां प्रक्रियायां मृतकानां, स्थानान्तरितानां, अनुपस्थितानां, मुधा मतदातृणां जनानां च नामानि अपाकृतानि सन्ति। येषां विद्यमानानां मतदातृणां नामानि सूच्यां नैव समाविष्टानि ते आवश्यक प्रपत्रकैः साकं जनवरी 22 यावत् आपत्तिं पञ्जीकर्तुम् अर्हन्ति। अन्तिम मतदातृ सूची आगामि वर्षस्य फरवरी 21 यावत् प्रख्यापयिष्यते। युगपदेव केरलस्य, छत्तीसगढस्य, अण्डमान निकोबारस्य च प्रारूप सूचिकाः अपि अद्यैव अनन्तरं प्रख्यापयिष्यन्ते। पश्चिम बंगाले निर्वाचन आयोगेन विशेष गहन पुनरीक्षण अभियानस्य अनन्तरं अपञ्जीकृत मतदातृणां वादश्रवणस्य प्रथम चरण शनिवासरात् प्रभृति आरप्स्यते। एतदन्तर्गतं प्राय 32 लक्षमिता जना समावेक्ष्यन्ते। एतस्मिन् चरणे प्राय 32 लक्षमिता तादृशा मतदातार समाविष्टा भविष्यन्ति येषां नामानि 2000-2000 वर्षस्य मतदातृसूच्यां नैव समाविष्टानि आसन्। मुख्य निर्वाचनाधिकारी कार्यालयस्य अनुसारेण अस्मिन् सन्दर्भे अधुना यावत् 10 लक्षमितेभ्य मतदातृभ्य सूचना प्रेषिता सन्ति। तत्रैव 20 लक्षमिता अतिरिक्ता सूचना अद्य प्रभृति प्रेष्यन्ते। गणनाचरणस्य अवसरे समस्ते राज्ये आहत्य 68,131 लक्षमिता अपञ्जीकृता मतदातार चिह्नीकृता सन्ति। एतस्या प्रक्रियाया उद्देश्य योग्य मतदातृजनानां सूच्यां समावेश वर्तते। सहैव निर्वाचन प्रक्रियायाम् अधिक पारदर्शिताया प्रवर्तनं वर्तते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले अथ च न्यूजोन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। भारतं श्रीलंका देशस्य कृते 140 मिलियन डॉलर मूल्यात्मकं सहायता पुटकं चक्रवात प्रभावित क्षेत्राणां पुनर्निर्माण हेतु प्रदास्यति। डिटवाह इत्याख्येन चक्रवातेन प्रभावित श्रीलंकायाः सहयोगार्थं भारतेन एषा पुनर्निर्माण सहयोग घोषणा कृतास्ति। कोलंबो नगरे संचार माध्यमानि सम्बोधयन् विदेशमन्त्री डॉ एस जयशंकरः प्रत्यपादयत् यत् एतस्मिन् सहाय्य पुटके 330 मिलियन डॉलर मूल्यात्मिका शैथिल्य कृता ऋण सहायता अस्ति चेत् 100 मिलियन डॉलर मूल्यात्मक अनुदान राशि वर्तते। डॉ जयशंकर न्यगदत् यत् भारतं संकट काले श्रीलंका देशेन साकं सुदृढतया तिष्ठति, तस्य पुनर्निर्माणे च पूर्ण सहयोगम् आचरिष्यति। नागरिक विमानन मन्त्रिणा श्री राममोहन नायडुना प्रोक्तं यत् अन्ताराष्ट्रिय नागरिक विमानन संघटनस्य परिषदि भारतं सर्वाधिकैः मतैः पुनश्चितम्। सामाजिक संजालीय तन्त्रे मन्त्रिणा व्यलेखि यत् प्रधानमन्त्रिणः श्री नरेन्द्र मोदिनः नेतृत्वे भारतीय विमानयान क्षेत्रस्य महती प्रसिद्धि सम्पूर्णे विश्वे जाजायते। श्री नायडुः अवदत् यत् सः अद्य अन्ताराष्ट्रिय नागरिक विमानन संघटनस्य नो कंट्री लेफ्ट बिहाइंड इनिशिएटिव इत्यस्मिन् प्रकल्पे भारतस्य समर्थनं समीक्षितवान्। अपि च तत्र भारतं महत्वपूर्ण सहभागीरूपेण उपस्थाय विकासशील देशेभ्य साहाय्यं प्रददाति। सहैव अन्ताराष्ट्रिय नागरिक विमानयान संघटनस्य मानकानाम् अनुशंसितम् अभ्यासं च प्रोत्साहयति। विश्व हिन्दू परिषद, बजरंग दलम चेत्यादयः अनेकाः संस्थाः अद्य नवदिल्ल्यां बांग्लादेश उच्चायोगस्य बहि बांग्लादेशे अल्पसंख्यक हिन्दूनाम् उपरि दुरापन्नानाम् अत्याचाराणां दीपूचन्द्रदासस्य हत्यायाश्च विरोधे विरोधप्रदर्शनम् आचरितवन्तः। उच्चायोगस्य बहि सुरक्षा व्यवस्था वर्धिता अस्ति, तथा च क्षेत्रम् आरक्षकाणाम् अर्धसैनिक बलानां च नियुक्त्या सह त्रिस्तरीय अवरोधेन सुरक्षी कृतमस्ति। एतदतिरिच्य विदेश मन्त्रालयः अवदत् यत् भारतं बांग्लादेशस्य परिवर्तितां परिस्थितिं निश्चितदृष्ट्या निरीक्षते। भारतीय उच्चायोगस्य अधिकारिणः बांग्लादेशस्य अधिकारिभिः सह सम्पर्के सन्ति। अल्पसंख्यकानाम् उपरि आक्रमणानां विषये गम्भीरां चिन्तां च प्रकटयन्ति। भारतस्य उपराष्ट्रपतिः श्री सीपी राधाकृष्णन् इत्यस्यौ अद्य पूर्व प्रधानमन्त्रिणः चौधरी चरणसिंह तस्मै श्रद्धाञ्जलिं समर्पितवान्। सामाजिक संजालीय तन्त्रे श्री राधाकृष्णन् वर्यः अवदत् यत् पूर्व प्रधानमन्त्री महान् नेता आसीत्, कृषिकल्याणस्य प्रबलः समर्थकः आसीत्। अपि च क्रिकेट क्रीडायां महिला क्रिकेट क्रीडायां भारतम् अद्य सायं विशाखापत्तनम् क्रीडांगणे द्वितीये विंशति प्रतिविंशति स्पर्धा द्वन्द्वे श्रीलंका देशं सम्मुखीकरिष्यति। ध्यानास्पदमस्ति यत् श्रृंखलायां भारतीयं दलं वर्तमाने शून्यं विरुध्य एकेन अंकेन अग्रे वर्तते। इति वार्ताः।